कौसल्या सुप्रजा राम पूर्वा सन्ध्या प्रवर्तते उत्तिष्ठ नरशार्दूल कर्तव्यम् दैवमात्मिकम् कौसल्या सुप्रजा राम पूर्वा सन्ध्या प्रवर्तते उत्तिष्ठ नरशार्दूल कर्तव्यम् दैवमात्मिकम् उत्तिष्ठोत्तिष्ठ गोविन्द उत्तिष्ठ गरुडध्वज उत्तिष्ठ कमलाकान्त त्रैलोक्यम् मङ्गलम् कुरु उत्तिष्ठोत्तिष्ठ गोविन्द उत्तिष्ठ गरुडध्वज उत्तिष्ठ कमलाकान्त त्रैलोक्यम् मङ्गलम् कुरु यादाद्रिनाथ शुभमन्दिर कल्पवल्ली पद्मालये जननि पद्मभवादिवन्द्ये भक्तार्तिभञ्जनि दयामयि दिव्यरूपे लक्ष्मी नृसिंहदयिते तव सुप्रभातम् यादाद्रिनाथ शुभमन्दिर कल्पवल्ली पद्मालये जननि पद्मभवादिवन्द्ये भक्तार्तिभञ्जनि दयामयि दिव्यरूपे लक्ष्मी नृसिंहदयिते तव सुप्रभातम् ज्वाला नृसिंह करुणामय दिव्यमूर्ते योगाभिनन्दन नृसिंह दया समुद्र लक्ष्मी नृसिंह शरणागत पारिजात यादाद्रिनाथ नृहरे तव सुप्रभातम् श्रीरङ्ग वेङ्कट महीधर हस्ति शैल श्रीयादवाद्रिमुख सत्त्व निकेतनानि स्थानानि ते किल वदन्ति परारवज्ञाः यादाद्रिनाथ नृहरे तव सुप्रभातम् ब्रह्मादयः सुरवराग्मुनिपुङ्गवाश्च त्वाम् सेवितुम् विविध मङ्गल वस्तु हस्ताः द्वारे वसन्ति नरसिंह भवाभिपोत यादाद्रिनाथ नृहरे तव सुप्रभातम् प्रह्लाद नारद पराशर पुण्डरीक व्यासादि भक्तरसिका भवदीय सेवा वाञ्छन्ति अनन्य हृदयः करुणा समुद्र यादाद्रिनाथ नृहरे तव सुप्रभातम् त्वद्दास्य भोगरसिका षठ जिन्मुखार्याः रामानुजादि महनीय गुरुप्रथानाः सेवार्थमत्र भवदीय गुहाङ्गणस्याः यादाद्रिनाथ नृहरे तव सुप्रभातम् भक्तास्त्वदीय पद पङ्कज रक्त चित्ताः काल्यम् विधाय तव कन्दर मन्दिराग्रे त्वद्दर्शनोत्सुकतया निबिडम् श्रयन्ते यादाद्रिनाथ नृहरे तव सुप्रभातम् दिव्यावतार दशकेन नरसिंहते तु दिव्यावतार महिमा सहि देवगम्यः प्रह्लाद दानव शिशोऽखिल भक्तिगम्यः यादाद्रिनाथ नृहरे तव सुप्रभातम् श्रीयादवाद्रिशिखरे त्वमहोऽभिलेपि सिंहाचले च शुभमङ्गल शैलराजे वेदाचलादिगिरिमूढ सुसुस्थितोऽसि यादाद्रिनाथ नृहरे तव सुप्रभातम् काम्यार्धिनो वरद कल्पक कल्पकम् त्वाम् सेवार्थिनः सुजन सेव्य पदद्वयम् त्वाम् भक्त्या विनम्र शिरस प्रणमन्ति सर्वे यादाद्रिनाथ नृहरे तव सुप्रभातम् त्वन्नाम मन्त्र पठनेन लुठन्ति पापाः त्वन्नाम मन्त्र पठनेन लुठन्ति दैत्याः त्वन्नाम मन्त्र पठनेन लुठन्ति रोगाः यादाद्रिनाथ नृहरे तव सुप्रभातम् त्वन्नाम मन्त्र पठनेन लुठन्ति पापाः त्वन्नाम मन्त्र पठनेन लुठन्ति दैत्याः त्वन्नाम मन्त्र पठनेन लुठन्ति रोगाः यादाद्रिनाथ नृहरे तव सुप्रभातम् लक्ष्मी नृसिंह जगदीश सुरेश विष्णो जिष्णो जनार्दन परात्पर विश्वरूप विश्वप्रभात करुणामय कृतावतार यादाद्रिनाथ नृहरे तव सुप्रभातम् त्वन्नाम मन्त्र पठनम् किल सुप्रभातम् अस्माकमस्तु तनयातु च सुप्रभातम् असमत्समुत्तरण मे विचित्र गाघ यादाद्रिनाथ नृहरे तव सुप्रभातम् त्वत्पूजकाः परिवृढाः परिचारकाश्च नित्यार्चनाय विधिवद्विहितस्वकृत्याः यत्तास्त्वदीयशुभघ्वरमन्दिराग्रे यादाद्रिनाथ नृहरे तव सुप्रभातम् प्रभातकीमपचितिम् परिकल्पयन्तः कुण्डाश्च पूर्णजलकुम्भमुपाहरन्तः श्रीवैष्णवाः समुपयान्ति हरे नृसिंह यादाद्रिनाथ नृहरे तव सुप्रभातम् सूर्योऽभ्युदेति विकसन्ति सरोरुहाणि नीलोत्पलानिह भवन्ति निमीलितानि प्राग्दिन्मुखेरुणगभस्ति गणोऽभ्युदेति यादाद्रिनाथ नृहरे तव सुप्रभातम् मन्दानिलसुरनदीकमलोदरेषु मन्दम् विगाह्य शुभसौरभमाधदानः हर्षप्रकर्षमुपयाति च सेवितुम् त्वाम् यादाद्रिनाथ नृहरे तव सुप्रभातम् परागणो वियतिमत्यति सुप्रभाते सूर्येण साकमवलोकयितुम् त्वदीयम् श्रीसुप्रभातमवभाति त सर्वलोकम् यादाद्रिनाथ नृहरे तव सुप्रभातम् पक्षीस्वनाश्च परितः परिसम्पतन्ति पूजन्ति कोकिलगणाः कलकण्ठरावैः वाचा विशुद्धकलयानुवदन्ति कीराः यादाद्रिनाथ नृहरे तव सुप्रभातम् पल्लीषु वल्लवजना स्वगृहाङ्गणेषु धेनुर्दुहन्ति विनिभान्ति विशेषदृष्ट्या गोपालबाल इव भक्तहृदम्बुजेषु यादाद्रिनाथ नृहरे तव सुप्रभातम् गाढान्धकरपटलम् गगनम् जहाति मोहान्धकार इव सन्मनुजम् समस्तम् रागो विराग इव संविशति प्रकामम् यादाद्रिनाथ नृहरे तव सुप्रभातम् निद्रा जाहाति हि जनान् सुमुनिम् यधावत् प्रज्ञात्युदेति हि जनेषु मुनौ यधावत् सत्यर्जनेषु हि यथा च मुनौ विरक्तिः यादाद्रिनाथ नृहरे तव सुप्रभातम् फुल्लानि पङ्कजवनानि विशुद्धसत्त्वा फुल्लानि सज्जनमनः कमलानि यद्वत् भाशुद्धिसत्त्वमिव भाति विविकसुधिक्सु यादाद्रिनाथ नृहरे तव सुप्रभातम् ब्रह्मा स्वयम् सुरगणैः सह लोकपालैः धाम प्रविश्य तव मण्डप गोपुराढ्यम् पञ्चाङ्ग शुद्धिमभिवर्णयति त्वदीया यादाद्रिनाथ नृहरे तव सुप्रभातम् विख्यात वैद्यजन वञ्चक रोगजाल विख्यात वैद्य इति रोग निपीडिताः निश्चित्य धाम तव दूरतः पतन्ति यादाद्रिनाथ नृहरे तव सुप्रभातम् भूतग्रहादिबलवत्तरतापयुक्ताः बाणावती मुखमहोग्रपिशाच विद्याः स्नातः प्रदक्षिणविधा उपयान्ति नाथ यादाद्रिनाथ नृहरे तव सुप्रभातम् सन्तानहीनवनिता सरसी त्वदीये स्नात्वा जलाद्रवसनास्तव दर्शनाय आयान्ति सन्तति वरप्रददेव देव यादाद्रिनाथ नृहरे तव सुप्रभातम् यद्दुष्टसंहरणमुत्तमलोकरक्ष दीक्षाम् यनक्तित विरूपमहो नृसिंह तच्छात्रयादगिरिमूर्ध्नि संविभाति यादाद्रिनाथ नृहरे तव सुप्रभातम् प्रह्लाद पुण्यजनि पुण्यबला प्रतीतम् रूपम् जनास्तव हरे निगमान्तमेद्यम् प्रातः स्मरन् स्मरति संसरणाम्बुराशिम् यादाद्रिनाथ नृहरे तव सुप्रभातम् श्रीसुप्रभातमिदमत्युतकैतवोक्तम् अत्यद्भुतम् भवतु भक्तजनैकवेद्यम् लक्ष्मी नृसिंह तव नाम शुभप्रभावात् यादाद्रिनाथ नृहरे तव सुप्रभातम् श्रीसुप्रभातमिदमत्युतकैतवोक्तम् अत्यद्भुतम् भवतु भक्तजनैकवेद्यम् लक्ष्मी नृसिंह तव नाम शुभप्रभावात् यादाद्रिनाथ नृहरे तव सुप्रभातम् इत्थम् यादाद्रिनाथस्य सुप्रभातमतन्धृताः ये पठन्ति नराः भक्त्या ये नराः सुखभागिनः इत्थम् यादाद्रिनाथस्य सुप्रभातमतन्धृताः ये पठन्ति नराः भक्त्या ये नराः सुखभागिनः नरसिंह रमेश कृपा जलधे सुरवैरि हिरण्य विदारणत नरलोकहितार्धरतः सततम् विजयी भव यादगिरीश विभो नरसिंह रमेश कृपा जलधे सुरवैरि हिरण्य विदारणत नरलोकहितार्धरतः सततम् विजयी भव यादगिरीश विभो करुणारसपूरविधेयतया सुरबालकबाधनिवारणत सममेव विदारितवनसूरम् विजयी भव यादगिरीश विभो करुणारसपूरविधेयतया सुरबालकबाधनिवारणत सममेव विदारितवनसूरम् विजयी भव यादगिरीश विभो नरकेश विरूप निरूपणत सुरशेखर रूप निरूपकत गमयन् शमयन् नरलोकरुजम् विजयी भव यादगिरीश विभो जनताभिमता परशीलपते भवहेत समुत्तरणैकमते सुरनायक नायक लोकपते विजयी भव यादगिरीश विभो నరలోక భయానక రూపమిదం ప్రహితం రచయన్ నరలోక ధియాన్ సకలస్య తు శాంతికరోభిమథ విజయీ భవయాద గిరీశ విభో అవతార గణేశ్వతి చిత్రపదం నరకేసరి మిశ్రిత రూపమిదం ప్రకటీకురుతే ఘటితే ఘటనాం తవ దివ్య విధాం నరసింహ విభో కరుణాకలయాఖిల లోకమిదం సకలాధ సమృద్ధిరమాభరణం కలయంజని కారణ కారణతో విజయీ భవయాద గిరీశ విభో పితా శ్రీ నృసింహ విభూ శ్రీ నృసింహ గతి శ్రీ నృసింహ ధనం శ్రీ నృసింహ భజే శ్రీ నృసింహం భజే శ్రీ నృసింహం నృసింహం భజే యాద శైలేశమీశం పితా శ్రీ నృసింహ విభూ శ్రీ నృసింహ గతి శ్రీ నృసింహ ధనం శ్రీ నృసింహ భజే శ్రీ నృసింహం భజే శ్రీ నృసింహం నృసింహం భజే యాద శైలేశమీశం నమే జ్ఞానమాత్యంతికో భక్తి భావః నమేవ సాధుచర్యా త్వమేవాతి సర్వం ఇతి వాపి విశ్వాస ఏష త్వదీయ త్వదీయోద్యహం సర్వమేవం త్వదీయం త్వదీయే సమస్తే మదీయత్వభావాచిరా సంవృతాత్మోహితో నాథ సత్యం ఇదానీం తు లక్ష్మీశ సేవా విశేషాత్ నిరస్తం హి మే మోహ జాతం సమస్తం త్వదీయే సమస్తే మదీయత్వభావాచిరా సంవృతాత్మోహితో నాథ సత్యం ఇదానీం తు లక్ష్మీశ సేవా విశేషాత్ నిరస్తం హి మే మోహ జాతం సమస్తం అజానతా మయా నాథ జన్మ కోటి శతైరపి కృతాని సర్వ పాపాని క్షంతవ్యాని దయామయా అజానతా మయా నాథ జన్మ కోటి శతైరపి కృతాని సర్వ పాపాని క్షంతవ్యాని దయామయా లక్ష్మీ నృసింహలలనాం జగతోస్య నేత్రీ మాతృస్వభావమహితాం హరితుల్యశీలా లోకస్య మంగళకరీంద్రమణీయ రూపా పద్మాలయాం భగవతీం శరణం ప్రపద్యే లక్ష్మీ నృసింహలలనాం జగతోస్య నేత్రీ మాతృస్వభావమహితాం హరితుల్యశీలా లోకస్య మంగళకరీంద్రమణీయ రూపా పద్మాలయాం భగవతీం శరణం ప్రపద్యే శ్రీయాదనామక మునీంద్ర తపో విశేషాత్ శ్రీయాదశైల శిఖరే సతత ప్రకాశౌ భక్తానురాగ భరితౌ భవరోగ వైద్యం శ్రీలక్ష్మీ నృసింహ చరణౌ శరణం ప్రపద్యే శ్రీయాదనామక మునీంద్ర తపో విశేషాత్ శ్రీయాదశైల శిఖరే సతత ప్రకాశం భక్తానురాగ భరితౌ భవరోగ వైద్యం శ్రీలక్ష్మీ నృసింహ చరణౌ శరణం ప్రపద్యే దేవస్వరూప వికృతేపి చ నైజ రూపం సర్వోత్తరౌ సుజన సంఘ నిసేవ్యమాణౌ సర్వస్య జీవన కరౌ సదృశ స్వరూపం శ్రీలక్ష్మీ నృసింహ చరణౌ శరణం ప్రపద్యే లక్ష్మీశతే ప్రపద్నే సహకార భూతౌ త్వత్తోత్యతి ప్రియతమౌ శరణాగతానా रक्षा विचक्षण पटु करुणालयौ श्रीलक्ष्मी नृसिंह चरणौ शरणं प्रपद्ये प्रह्लाद पौत्र बलिदानव भूमिदान काल प्रकाशित निचान्य जघन्य भावौ लोक प्रमाण करणौ शुभदौ सुराणां श्रीलक्ष्मी नृसिंह चरणौ शरणं प्रपद्ये कायाधवीय शुभमानस राजहंसौ वेदांत कल्पतरु पल्लव सल्लजौ तौ सद्भक्त मूलधन मित्युदित प्रभावौ श्रीलक्ष्मी नृसिंह चरणौ शरणं प्रपद्ये त्रैविक्रमे पधिवटुत्तम रामचन्द्र श्रीदण्डकानन पधे प्रधित प्रकाशौ वृन्दावने व्रजवधूमिरन प्रवृत्तौ श्रीलक्ष्मी नृसिंह चरणौ शरणं प्रपद्ये श्रीमन् नृसिंह तव दास्य रसैक वेषः दास्यादनन्यगतिकः त्वदधीनवृत्तिः भोग्येऽप्यनन्यरस एव भवेयमस्य जन्मान्तरेऽपि सुरलोकसुखेऽपि सत्यम्